यच्छिद्धिते दिशो यथा प्रदेव वरुणम् व्रतम् विमसिज्य विद्यवि मानावधाय हत्रवेदिलालस्य रीरदः माहृणानस्य मन्यवे निमृगीकाय ते मनोरथीरश्वन्नसन्दीतम् गेर्भिर्वरुणसीमहि परायि मे विमन्यमः पदम् दिवस्य इष्टये वयो नवसतीरुप कदा क्षत्रश्रियम् नरमावरूणम् करामहे मृगीकायो रुचक्षसम् तदिच्छमानमासा देवेनम् दानप्रयुच्छतः धृतव्रताय दासुषे वेदायो वीराम् पतमन्तरिक्षे न पतताम् वेदनामस्य मुद्रियाः वेदमासो धृतव्रतो द्वादश प्रजावतः वेदायमुपजायते वेदमातस्य वर्तनि पुरोरिष्णस्य बृहतः वेदाये अध्यासते निषादधृतम् व्रतो वरुणः पस्त्या आस्मा साम्राज्याय सुक्रतुः अधो विश्वान्यद्भूतादिगत्वा अभिपश्यति कृतनायाचकत्वा सनो विश्वाः सुक्रतुरादित्यः सुपथाकरत् प्रणायोंषितारिषत् निर्भद्राबिम्भिरण्ययम् वरुणोऽवस्तनिर्निजम् परिस्पसो निषेदिरे नयम् निप्सन्ति लिप्सवो न दृह्वा नो जनानाम् न देवमभिमादयः उदयो मानुषेष्वायसश्चक्रे असाम्या अस्माकमुदरेष्वा परामेयम् जिहीतयोगा भो न गम्यो तीरनो इच्छन्तीरुचक्षसम् तन्ववाचामहै पुनर्यतो मे मध्वाभृतम् भोरे रक्षदासे प्रियम् दर्शम् न विश्वदर्शकम् दर्शम् रथमधिक्षमि एताजोषतमे गिराः इमम् मे वरुणश्रुधीहव मत्या च मृणय त्वामवस्तुराचाके त्वम् विश्वस्य मेधिरजिवश्चग्मश्च राजसि सयामानि प्रतिश्रुधि उदुत्तमम् मो मुद्धिनो विपासम् मध्यमम् श्रेत अबाधमानि जीवसे